अस्य श्रीरामरक्षास्तोत्रमन्त्रस्य बुधकौशिकऋषिः श्रीसीतारामचन्द्रो देवता अनुष्ठुप् छन्दः सीताशक्तिः श्रीमान् हनुमान् कीलकम् श्रीरामचन्द्रप्रीत्यर्थे रामरक्षास्तोत्रजपे विनियोगः ध्यानम् ध्यायेदाजानुबाहुम् धृतशरदनुषम् बद्धपद्मासनस्थम् पीतम् वासो वसानम् नवकमलदळस्पत्तिनेत्रम् प्रसन्नम् वामाङ्कारूढसीतामुखकमलमिलल्लोचनम् नीरदाभम् नानालङ्कारदीप्तम् ददतमुरुजटामण्डलम् रामचन्द्रम् स्तोत्रम् चरितम् रघुनाथस्य शतकोटिप्रविस्तरम् एकैकमक्षरम् पुंसाम् महापातकनाशनम् ध्यात्वा नीलोत्पलश्यामम् रामम् राजीवलोचनम् जानकी लक्ष्मणोपेतम् जटामकुटमण्डितम् सासितूणधनुर्बाणपाणिम् नक्तम् चरान्तकम् स्वलीलया जगत्रातुमाविर्भूतमजम् विभुम् रामरक्षाम् पठेत् प्राज्ञः पापघ्नीम् सर्वकामदाम् शिरो मे राघवः पातु फालम् दशरथात्मजः कौसल्येयो दृशो पातु विश्वामित्रप्रियश्रुति घ्राणम् पातु मखत्राता मुखम् सौमित्रिवत्सलः जिह्वाम् विद्यानिधिः पातु कण्ठम् भरतवन्दितः स्कन्धौ दिव्यायुधः पातु भुजौ भग्नेशकार्मुकः करौ सीतापतिः पातु हृदयम् जामदग्न्यजित् मध्यम् पातु खरध्वंसी नाभिम् जाम्बवदाश्रयः सुग्रीवेश कटी पातु सक्थिनी हनुमत्प्रभुः ऊरुरघुत्तमः पातु रक्षः कुलविनाशकृत् जानुनीषेधकृत् पातु जङ्घे दशमुखान्तकः पादौ विभीषणः श्रीरः पातु रामोऽखिलम् वपुः एताम् रामबलोपेताम् रक्षाम् यः सुकृती पठेत् सचिरायुः सुखी पुत्री विजयी विनयी भवेत् पातालभूतलव्योमचारिणश्चत्मचारिणः न द्रष्टुमपि शक्तास्ते रक्षिणम् रामनामभिः रामेति रामभद्रेति रामचन्द्रेति वास्मरन् नरो न लिप्यते पापैर्भुक्तिम् मुक्तिम् च विन्दति जगच्चैत्रैकमन्त्रेण रामनाम्नाभिरक्षितम् यः कण्ठे धारयेत्तस्य करस्थाः सर्वसिद्धयः वज्रपञ्जरनामेदम् यो रामकवचम् स्मरेत् अव्याहताज्ञः सर्वत्र लभते जयमङ्गलम् आदिष्टवान् यथा स्वप्ने राम रक्षामि माम् हरः तथा लिखितवान् प्रातः प्रबुद्धो बुधकौशिकः आरामः कल्पवृक्षाणाम् विरामः सकलापदाम् अभिरामस्त्रिलोकानाम् रामः श्रीमान्सनः प्रभुः तरुणौ रूपसम्पन्नौ सुकुमारौ महाबलौ पुण्डरीकविशालाक्षौ क्षीरकृष्णाजिनाम्बरौ फलमूलाशिनौ तान्तौ तापसौ ब्रह्मचारिणौ पुत्रौ दशरथस्यैतौ भ्रातरौ रामलक्ष्मणौ शरण्यौ सर्वसत्त्वानाम् श्रेष्ठौ सर्वधन्ष्मताम् रक्षः कुलनिहन्तारौ त्रायेताम् नो रघुत्तमौ आतसज्जधनुषा विषस्पृशा वक्षयाशुगनिषङ्गसङ्गिनौ रक्षणाय मम रामलक्ष्मणा भग्रतः पति सदैव गच्छताम् सन्नद्धः कवची खड्गी चापबाणधरो युवा गच्छन्मनोरथान्नश्च रामः पातु स लक्ष्मणः रामो दाशरथिः शूरो लक्ष्मणानुचरो बली काकुत्स्थः पुरुषः पूर्णः कौसल्येयो रघुत्तमः वेदान्तवेद्यो यज्ञेशः पुराणपुरुषोत्तमः जानकीवल्लभः श्रीमानप्रमेयपराक्रमः इत्येतानि जपे नित्यम् मद्भक्तः श्रद्धयान्वितः अश्वमेधाधिकम् पुण्यम् सम्प्राप्नोति न संशयः रामं दूर्वादलश्यामं पद्माक्षं पीतवाससं स्तुवन्ति नाम भिर्दिव्यै नते संसारिणो नराः रामं लक्ष्मणपूर्वजं रघुवरं सीतापतिं सुन्दरं काकुत्सं करुणान्नवं गुणनिधिं विप्रप्रियं धार्मिकं राजेन्द्रं सत्यसन्धं दशरथतनयं श्यामलं शान्तमूर्तिं वन्दे लोकाभिरामं रघुकुलतिलकं राघवं रावणार्युं रामाय रामभद्राय रामचन्द्राय वेधसे रघुनाथाय नाथाय सीताय पतये नमः श्रीराम राम रघुनन्दन राम राम श्रीराम राम भरताग्रज राम राम श्रीराम राम रणकर्कश राम राम श्रीराम राम शरणं भव राम राम श्रीरामचन्द्र चरणौ मनसा स्मरामि श्रीरामचन्द्र चरणौ वचसा गृणामि श्रीरामचन्द्र चरणौ शिरसा नमामि श्रीरामचन्द्र चरणौ चरणं प्रपद्ये माता रामो मत्पिता रामचन्द्रः स्वामी रामो मत्सखा रामचन्द्रः सर्वस्वं मे रामचन्द्रो दयालुः नान्यं जाने नैव जाने न जाने दक्षिणे लक्ष्मणो यस्य वामे च जनकात्मज पुरतो मारुतिर्यस्य तं वन्दे रघुनन्दनम् लोकाभिरामं रणरङ्गधीरं राजीवनेत्रं रघुवंशनाथं कारुण्यरूपं करुणाकरन्तं श्रीरामचन्द्रं शरणं प्रपद्ये मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये कूजन्तं राम रामेति मधुरं मधुराक्षरम् आरुह्य कविता शाखां वन्दे वाल्मीकिकोकिलम् आपदामपहर्तारं दातारं सर्वसम्पदां लोकाभिरामं श्रीरामं भूयो भूयो नमाम्यहम् भर्जनं भव बीजानामर्जनं सुखसम्पदां तर्जनं यमदूतानां राम रामेति गर्जनम् रामो राजमणिः सदा विजयते रामं रमेशं भजे रामेणाभिहता निशाचरचमु रामाय तस्मै नमः रामान्नास्ति परायणं परतरं रामस्य दासोऽस्म्यहम् रामे चित्तलय सदा भवतु मे भो राम मामुद्धर श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने श्रीराम राम रामेति रमे रामे मनोरमे सहस्रनाम तत्तुल्यं राम नाम वरानने इति श्रीबुधकौशिकमुनिविरचितं श्रीरामरक्षास्तोत्रम् सम्पूर्णम्।